ब्रह्मशिरसादेवं गौरीपुत्रं विनायकं भक्तावासं स्मरे नित्यम् आयुकामार्थसिद्धये। दशमं तु विनायकम् एकादशं गणपतिं द्वादशं तु गजाननं द्वादशैकानि नामानि विसङ्गम्य पठेन्द्रः न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो विद्याभिलभते विद्यम् लभते धनम् पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् जपे गणपति स्तोत्रम् षड्भिर्मासे फलम् लभे संवत्सरेण सिद्धिम् च लभते नाद्य संशय समर्पये तस्य विद्यां भवेत् सर्वं गणेशस्य प्रसादतः।